ओम नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। राजोवाच, बले पदत्रयं भूमेः कस्माद्धरिरयाचत, भूत्वेश्वरः कृपणवल्लब्धार्थोऽपि बबन्धतम्। एतद्वेदितुमिच्छामो महत्कौतूहलं हिनः, यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागतः। श्रीशुक उवाच, पराजितश्रीरसुभिश्चापितो हीन्द्रेण राजन् भृगुभिश्च जीवितः। सर्वात्मनातान् भजद्भृगून् बलिः शिष्यो महात्मार्थनिवेदनेन। तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता त्रिणाकम्। जिगीषमाणम् विधिनाभिषिच्य महाभिषेकेण महानुभावाः। ततो रसः काञ्चन पट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः। ध्वजश्च सिंहेन विराजमानो हुताशनादासहविर्भिरिष्टात्। धनुश्च दिव्यम् पुरटोपनद्धम् तूणावरिक्तौ कवचम् च दिव्यम्। पितामहस्तस्य ददौ च माला ममलान पुष्पाम् जलजम् च शुक्रः। एवम् स विप्रार्जितयोधनार्थस्तैकल्पितस्वश्चयनोऽथ विप्रान्। प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार। अथारुह्य रथम् दिव्यम् भृगुदत्तम् महारथः। सुस्रग्धरोऽथ सन्नय्य धन्वी खड्गी धृते शुधिः। हेमाङ्गदल सद्बाहुः स्फुरन् मकरकुण्डलः। रराजरथमारूढो धिष्ण्यस्थ इव हव्यवाट्। तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः। पिबद्भिरिव खम् दृग्भिर्दहद्भिः परिधीनिव। वृतो विकर्षन् महती मासुरीम् ध्वजिनीम् विभुः। ययाविन्द्रपुरीम् स्पृद्धाम् कम्पयन्निव रोदसी। रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः। कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः। प्रवालफलपुष्पोरुभारशाखामरद्रुमैः। हंससारसचक्राव्वकारण्डवकुलाकुलाः। नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः। आकाशगङ्गया देव्या वृताम् परिखभूतया। प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च। रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः। जुष्टाम् विभक्तप्रपथाम् विश्वकर्म विनिर्मिताम्। सभाचत्वररथ्याढ्याम् विमानैर्न्यर्बुदैर्युताम्। शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः। यत्र नित्यवयोरूपाः श्यामा विरजवाससः। भ्राजन्ते रूपवन्नार्यो यर्चिर्भिरिव वन्नयः। सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम्। यत्रामोदमुपादाय मार्ग आवाति मारुतः। हेमजालाक्ष निर्गच्छद्धूमेना गुरुगन्धिना। पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः। मुक्तावितानैर्मणिहेमकेतुभिर्नानापताकावलभीभिरावृताम्। शिखण्डिपारावतभृङ्गनादिताम् वैमानिकस्त्रीकलगीतमङ्गलाम्। मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजष्टिवेणुभिः। नृत्यैः सवाद्यैरुपदेवगीतकैर्मनोरमाम् स्वप्रभयाजितप्रभाम्। याम् न व्रजन्त्य धर्मिष्ठाः खलाभूतद्रुहशठाः। मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत्। ताम् देवधानीम् सवरूथिनीपतिर्बहिः समन्ता द्रुरुधे पृतन्यया। आचार्यदत्तम् जलजम् महास्वनम् दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम्। मघवान् स्तमभिप्रेत्य बले परममुद्यमम्। सर्वदेवगणोपेतो गुरुमेतदुवाचः, भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः। अविषय्यमिमम् मन्ये केनासीत् तेजसोऽर्जितः। नैनम् कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः। पिबन्निव मुखे नेदम् लिहन्निव दिशो दश। दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः। ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः। ओजःसहो बलम् तेजो यत एतत्समुद्यमः। गुरुरुवाच, जानामि मघवन् छत्रोरुन्नतेरस्य कारणम्। शिष्यायोपभृतम् तेजो भृगुभिर्ब्रह्मवादिभिः। भवद्विधो भवान् वापि वरदयित्वेश्वरम् हरिम्। नास्य शक्तः पुरस्थातुम् कृतान्तस्य यथा जनाः। तस्मान्निलयमुत्सृज्य यूयम् सर्वे त्रिविष्टपम्। यातकालम् प्रतीक्षन्तो यत शत्रोर्विपर्ययः। एष विप्रबलोदर्कः सम्प्रत्युर्जित विक्रमः। तेषामेवापमानेन सानुबन्धो विनङ्क्षति। एवम् सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना। हित्वा त्रिविष्टपम् जग्मुर्गीर्वाणाः कामरूपिणः देवेश्वथनिलीनेषु बलिर्वैरोचनः पुरीम् देवधानीमधिष्ठाय वशम् निन्ये जगत्त्रयम् तम् विश्वजैनम् शिष्यम् भृगवः शिष्यवत्सलाः शतेन हयमेधानामनुव्रतमयाजयन् ततस्तदनुभावेन भुवनत्रय विश्रुताम् कीर्तिम् दिक्षु वितन्वानः सरेज उडुराडिव बुभुजे च श्रियम् स्रिद्धाम् द्विजदेवोपलम्भिताम् कृतकृत्यमिवात्मानम् मन्यमानो महामनाः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टमस्कन्धे पञ्चदशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।